इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः ओडिशायाः भुवनेश्वरनगरे आरक्षिमहानिदेशकानां महानिरीक्षकाणां च अखिलभारतीयसम्मेलने प्रतिभागम् अकरोत्। त्रिदिवसीये सम्मेलने केन्द्रीयगृहमन्त्री अमितशाहः, राष्ट्रियसुरक्षापरामर्शदः अजीतडोभालः, प्रधानमन्त्रिणः प्रधानसचिवः पीकेमिश्रा, अन्ये च गणमान्याः अस्मिन् महत्वपूर्णे आयोजने प्रतिभागं कृतवन्तः। राष्ट्रियसुरक्षायाः सम्बद्धेषु विविधविषयेषु चर्चायै वरिष्ठारक्षि अधिकारिभ्यः सुरक्षासम्बद्धप्रशासकेभ्यश्च अयं महत्वपूर्णमञ्च विद्यते। सम्मेलने आतंकवाद, वामपन्थोग्रवाद, तटवर्तिसुरक्षा, मादकपदार्थानां तस्करणनिराकरणसमेत्य नूतनापराधिकविधिषु राष्ट्रियसुरक्षासम्बद्धमहत्वपूर्णपक्षेषु ध्यानकेन्द्रितं क्रियते। अत्रावसरे विशिष्टसेवायै राष्ट्रपतिः आरक्षिपदकानि अपि प्रदास्यन्ते। उपराष्ट्रपतिः जगदीपधनखडः अद्य उत्तरप्रदेशस्य कानपुरस्य यात्रायां भविष्यति। सः जयपुर्या विद्यालयस्य स्वर्णजयन्त्योत्सवे मुख्यातिथिरूपेण भागं भजिष्यति। तदतिरिक्तं उपराष्ट्रपतिः कानपुरस्य भारतीयप्रौद्योगिकीसंस्थानम् अपि गमिष्यति, यत्र सः छात्रान् संकायसदस्यान् च सम्बोधयिष्यति। महाराष्ट्रे नवनिर्वाचितस्य महायुतिसर्वकारस्य शपथग्रहणसमारोहः दिसम्बरमासस्य पञ्चमे दिनाङ्के सायं 5 वादने मुम्बईनगरस्य आजाद उद्याने भविष्यति। वार्ताहरैः सह वार्तालापं कुर्वन् भाजपा महाराष्ट्रस्य अध्यक्षः चन्द्रशेखर बावनकुले उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी समारोहे भागं गृह्णीयात्। सद्यः एव जाते विधानसभानिर्वाचने भाजपादलं शिन्दे नेतृत्वस्य शिवसेना, अजीतपवारस्य राष्ट्रवादी कांग्रेस एनसीपी इति दलानां महायुति संयुत्याः 88-200 आसनेषु 30-200 आसनानि विजितानि। नागालैंड राज्ये अद्य 62वां राज्यस्थापना दिवसः आयोज्यते। 63-29 शततमे वर्षे अस्मिन् दिने एव नागालैंड राज्यं भारतस्य 16वां राज्यम् अभवत्। नागालैंड देशस्य इतिहासे अस्य महत्वपूर्णस्य दिनस्य स्मरणार्थं राज्ये सर्वत्र आयोजनानां श्रृंखलायाः योजना कृतास्ति। राज्यस्तरीयः उत्सवः कोहिमानगरस्य नागालैंड नागरिक सचिवालयस्य प्लाजा इत्यत्र भविष्यति, यत्र मुख्यमंत्री नेफ्यू रियो इत्येषः सभां संबोधयिष्यति। विगत 6 दशकेषु राज्यस्य यात्रायाः विषये चिन्तनं च करिष्यति। प्रधानमन्त्री नरेन्द्रमोदी शोधकर्तुः डॉ पृथ्वीन्द्र मुखर्जीवर्यस्य देहावसाने शोकं प्रकटितवान्। श्रीमोदी स्वसन्देशे अवदत् यत् डॉ मुखर्जी बहुपक्षीयव्यक्तित्वः आसीत्, यः बौद्धिक जगति दृढं चिह्नं चिह्नितवान्। श्रीमोदी अवदत् यत् आगामिषु वर्षेषु तस्य कृतयः रचनाः च प्रशंसिताः भविष्यन्ति। बंगालस्य दक्षिणपश्चिमखात्यां प्रचलितः फेंगलचक्रवातः गतसायं तमिलनाडु पुडुचेरी तटेषु प्रवेशं कृतवान्। महाबलिपुरम पुडुचेरी नगरयोः मध्ये प्रायः सायं 5:30 स्थलप्रवेशस्य प्रक्रिया आरब्धा। दिसम्बरमासस्य 3वें दिनाङ्कपर्यन्तं वर्षा भवितुं शक्नोति। ह्यः ओमानस्य मस्कटनगरे पुरुषाणां कनिष्ठ एशियाचषकक्रीडायां भारतीय कनिष्ठ पुरुष हॉकीदलेन चीनी ताइपे दलं पूल ए इति क्रीडायां पराजितम् इति वार्ताः।